कालिंदी जलकांतयः स्मितरुचिं स्वर्वाहिनी पादसीं प्रौढद्वान्तरुचः स्फुटाधरमहों लौहित्यसन्ध्योदयें माणिक्योपलकुण्डलां शुषिकिनी व्यामिश्रधूम्रश्रियः कल्याणैकभुवः कडाक्षसुषुमाः कामाक्षिराजन्दिते कलकलरणत्काञ्ची काञ्चीविभूषणमालिका कचबरलसच्चन्द्रा चन्द्राभदंससधर्मिणी कविकुलकिरः श्रावं मिलत्पुलकाङ्कुरा विरचितशिरः कम्पा कम्पातटे परिशोभते सरसवचसां वीचिनीची भवन्मतुमातुरीं परितभुवना कीर्तिर्मूर्तिर्मनोभवजित्वरीं जननि मनसो योग्यं भोग्यं नृणां तव जायते कथमिव विना काञ्चीभूषे कडाक्षतरङ्गितम्।